रामचन्द्राय जनकराज जामनोहराय मामकाभीष्टदाय महितमङ्गलम् कोसलेन्द्राय मन्दहासदासपोषणाय वासवादिविनुदसर्वराय मङ्गलम् चारुकुम्भुमोपेतचन्दनादिचर्चिताय हारकटकशोभिताय भूरिमङ्गलम् ललितरत्नकुण्डलाय तुलसीवनमालिकाय जलजसदृशदेहाय चारुमङ्गलम् देवकीसुपुत्राय देवदेवदोत्तमाय चावजागगुरुवराय भव्यमङ्गलम् पुण्डरीकाक्षाय पूर्णचन्द्राननाय अन्धजागवाहनाय अतुलमङ्गलम् विमलरूपाय विविधवेदान्तवेद्याय सुमुखचित्तकामिताय शुभ्रमङ्गलम् रामदासाय मृदुलहृदयकमलवासाय स्वामि भद्रगिरिवराय सर्वमङ्गलम्।